प्रजापति गुम् हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणा ब्रह्मणस्पत आनः शृण्वन्नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवते धेनावित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ओम् हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजा चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो मावह ताम् मावह जातवेदो लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् विन्देयम् गामश्वम् पुरुषानहम् अश्वपूर्वाम् रथमध्याम् हस्तिनाद प्रबोधिनीम् श्रियम् देवीमुपह्वये शेर्मा देवीर्जुषता काम् सोऽस्मिताम् हिरण्यप्राकारामार्द्रा ज्वलन्तीम् तृप्ताम् तर्पयन्ते पद्मे स्थिताम् पद्मवर्णाम् तामिहोपह्वये श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिनीमीम् शरणमहम् प्रपद्ये अलक्ष्मीर्मे नश्यताम् त्वाम् ऋणे आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोत बिल्वः तस्य फलानि तपसा नोदन्तु मायान्तरायाश्च बाह्य अलक्ष्मीः उपैतु माम् देवसखः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिवृद्धिम् ददातु मे क्षुत्पिपासामलाम् ज्येष्ठामलक्ष्मीम् नाशयाम्यहम् अभूतिमसमृद्धिम् च सर्वानिर्णुद मे गृहात् गन्धद्वाराम् धुराधर्षाम् नित्यपुष्टाम् करीषिणी ईश्वरी गुम् सर्वभूताणाम् तामिहोपह्वये श्रियम् मनसः काममाकोतिम् वाचः सत्यमशेमहे पशूनाम् रूपमन्नस्य महिष्ये श्रयताम् यशः कर्दमेन प्रजा भूता मयि सम्भव कर्दम श्रियम् वासय मे कुले मातरम् पद्ममालिनी आपसृजन्तु स्निग्धानि चिक्लीतवस मे गृहे निज देवे मातरम् श्रियम् वासय मे कुले आर्द्राम् पुष्करिणीम् पुष्टिम् पिङ्गलाम् पद्ममालिनी चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो मावह आर्द्राम् यः करिणीम् यष्टिम् सुवर्णाम् हेममालिनी सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो मावह ताम् आवह जातवेदो लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् प्रभूतम् गावो दास्योऽश्वा विन्देयम् पुरुषानहम् यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमण्वहम् श्रियः पञ्चदशर्चम् च श्रीकामः सततम् जपेत् पद्मानने पद्म ऊरो पद्माक्षे पद्मसम्भवे त्वं मां भजस्व पद्माक्षेयेन सौख्यं लभाम्यहम् अश्वदाये गोदाये धनदाये महाधने धनं मे जुषतां देवे सर्वकामाश्च देहि मे पुत्र पौत्र धनं धान्यं हस्त्यश्वादि गवेरथम् प्रजानां भवसि माता आयुष्मन्तं करोतु माम् धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते वैनते यसोमं पिब सोमं पिबतु वृत्रः सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः न क्रोधो न च मात्सर्यं न लोभो न शुभामतिः भवन्ति कृतपुण्यानां भक्तानां श्रीसोक्तं जपेत् सदा वर्षं तु ते विभावरे दिवो अभ्रस्य विद्युतः रोहन् तु सर्वबीजान्यवब्रह्मद्विषो जहे पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षे विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मं मयि सन्निधस्व या सा पद्मासनस्ता विपुलकटितटे पद्मपत्रा यताक्षे गम्भीरावर्तनाभिस्तनभरणमिता शुभ्रवस्त्रोत्तरेया लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिघनखचितैः स्नापिता हेमकुम्भैः नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मीं क्षीरसमुद्रराजतनया श्रीरङ्गधामेश्वरे दासी भूतसमस्तदेववनितां लोकैकदीपां कुरा श्रीमन्मन्दकटाक्षलब्धविभव ब्रह्मेन्द्र गङ्गाधरा त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्द प्रिया सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मी सरस्वती श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा वराङ्कुशौपाशमभीतिमुद्रां करैर्वहन्तीं कमलासदस्ता बालार्ककोटिप्रतिभां त्रिनेत्रां भजेऽहमम्बां जगदीश्वरीं त्वां सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवे नारायणि नमोऽस्तु ते महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहे तन्नो लक्ष्मी प्रचोदयात् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महे महेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः।
ब्रह्म मे तु मां मधु मे तु मां
मेतु माम् यास्ते सोम प्रजावत्सो भिसो अहम् दुष्वप्नहं दुरुष्यः यास्ते सोम प्राणागुस्ताञ्जुहोमि त्रिसुपर्णमयाचितम् ब्राह्मणाय दद्यात् ब्रह्महत्याम् वा एते घ्नन्ति ये ब्राह्मणा त्रिसुपर्णम् पठन्ति ते सोमम् प्राप्नुवन्ति आसहस्रात् पङ्क्तिम् पुनन्ति ॐ ब्रह्ममेधया मधुमेधया ब्रह्ममेव मधुमेधया अद्यानो देवसवितः प्रजापत्साभिः सौभगम् परा दुष्वप्नियगुंसु वा विश्वानि देवसवितर्दुरितानि परासु वा यद्भद्रम् तन्महासु वा मधुवाता ऋतायते मधुक्षरन्ति सिन्धवः माध्वीर्न सन्तोषधीः मधुनक्तमुतोषसि मधुमत्पाति बहुम् रजः मधुद्यौरस्तु नः पिता मधुमान्नो वनस्पतिर्मधुमागुम्मस्तु चोर्यः माध्वीर्गावो भवन्तु नः य इमम् त्रिसुपर्णमयाचितम् ब्राह्मणाय दद्यात् भ्रूणहत्याम् वा एते घ्नन्ति ये ब्राह्मणा त्रिसुपर्णम् पठन्ति ते सोमम् प्राप्नुवन्ति आसहस्रात् पङ्क्तिम् पुनन्ति ॐ ब्रह्ममेधवा मधुमेधवा ब्रह्ममेव मधुमेधवा ब्रह्मा देवानाम् पदवीः कवीनाम् ऋषिर्विप्राणाम् महिषो मृगाणाम् श्येनो गृद्धानागृत्स्वलिर्वलानागुम् सोमः पवित्रमत्येतिरे भन्न अगुंसशुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिर्दुरोणशत् ऋषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम् बृहत् ऋचे त्वा समिश्रवन्ति सरितो नधेना अन्तर्हृदा मनसा पूयमाना ऋतस्य धारा अभिचाकशीमि हिरण्ययोगे तसो मध्य आसा